राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण चतुर्थ स्कंद 31 अध्याय 31 ट्रेक में
ओम नमो भगवते वासुदेवाय श्रीमद्भागवत महापुराणम चतुर्थः स्कंधः अथ प्रथमोऽध्यायः। मैत्रेय उवाच मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः। मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः। आकूतिं ऋचये प्रादादपि भ्रातृमतीं नृपः पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः। प्रजापतिः स भगवान् ऋचिस्तस्यामजीजनत् मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना। यस्तयोः पुरुषः साक्षात् विष्णुर्यज्ञस्वरूपधृक् या स्त्री सा दक्षिणा भूतेरंशभूतान पायिनी। आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ताम् कामयानाम् भगवान् उवाह यजुषाम् पतिः। तुष्टायाम् तोषमापन्नो जनयद्वादशात्मजान् तोष प्रतोष सन्तोषो भद्र शान्तिरिडस्पतिः। इद्म कविर्विभुस्वन्नः सुदेवो रोचनो द्विषट् तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे। मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ तत्पुत्रपौत्रणत्रीणामनुवृत्तम् तदन्तरम्। देवहूतिमदात्तात कर्दमायात्मजाम् मनुः तत्सम्बन्धिषुतप्रायम् भवता गततो मम। दक्षाय ब्रह्मपुत्राय प्रसूतिम् भगवान् मनुः प्रायच्छद् यत्कृतः सर्गस्त्रिलोक्याम् विततो महान्। याः कर्दमसुताः प्रोक्ता नवब्रह्मर्षिपत्नयः तासाम् प्रसूतिप्रसवम् प्रोच्यमानम् निबोध मे। पत्नीमरीचेस्तु कला सुसुवे कर्दमात्मजा कश्यपम् पूर्णिमानम् च ययोरापूरितम् जगत् पूर्णिमासूतविरजम् विश्वगम् च परन्तप। देवकुल्याम् हरे पाद शौचाद्या भूत्सरिद्दिवः अत्रे पत्न्यनसूयात्रीन् जज्ञे सुयशसः सुतान् दत्तम् दुर्वाससम् सोममात्मेश ब्रह्म सम्भवान्। विदुर उवाच अत्रेर्गृहे सुरश्रेष्ठा स्थित्युत्पत्यन्त हेतवः किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो। मैत्रेय उवाच ब्रह्मणानोदितसृष्टा वत्रिर्ब्रह्मविदाम् वरः सह पत्न्या यया वृक्षम् कुलाद्रिम् तपसि स्थितः। तस्मिन् प्रसूनस्तबक पलाशा शोककानने वार्भिस्रवद्भिरुद्घुष्टे निर्विन्ध्याया समन्ततः। प्राणायामेन संयम्य मनोवर्षशतम् मुनिः अतिष्ठदेकपादेन निर्द्वन्द्वो निलभोजनः। शरणम् तम् प्रपद्येऽहम् य एव जगदीश्वरः प्रजामात्मसमाम् मह्यम् प्रयच्छत्विति चिन्तयन् तप्यमानम् त्रिभुवनम् प्राणायामैधसाग्निना। निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः अप्सरो मुनिगन्धर्व सिद्धविद्याधरोरगैः वितायमान यशसस्तदाश्रमपदम् ययुः। तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् प्रणम्य दण्डवद्भूमावुपतस्थेर्हणाञ्जलिः। वृषहंससुपर्णस्थान् स्वैश्चिन्नैश्च चिन्नितान् कृपावलोकेन हसद्वदनेनोपलम्भितान् तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी चेतस्तत्प्रवणम् युञ्जन्नस्तावीत् संहताञ्जलिः। श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः अत्रिरुवाच विश्वोद्भवस्थितिलये सुविभज्यमानैर्मायागुणैरनुयुगम् विगृहीतदेहाः ते ब्रह्म विष्णुगिरिशा प्रणतोऽस्म्यहम् वस्तेभ्यः क एव भवताम् न इहोपहूतः। एको मयेह भगवान् विबुधप्रधानश्चित्तीकृतः प्रजननाय कथम् नुयूयम् अत्रागतास्तनुभृताम् मनसोऽपि दूरात् ब्रूतप्रसीदत महानिह विस्मयो मे। मैत्रेय उवाच इति तस्य वच श्रुत्वा त्रयस्ते विबुधर्षभाः प्रत्याहौ श्लक्ष्णया वाचा प्रहस्य तमृषिम् प्रभो। देवाऊचुः यथा कृतस्ते सङ्कल्पो भाव्यम् तेनैव नान्यथा सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम्। अथास्मदंश भूतास्ते आत्मजा लोक विश्रुताः भवितारोऽङ्ग भद्रन्ते विस्रप्स्यन्ति च ते यशः। एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः सभाजितास्तयो सम्यक् दम्पत्योर्मिषतोस्ततः। सोमो भूद् ब्रह्मणोऽंशेन दत्तो विष्णोस्तु योगवित् दुर्वासा शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः श्रद्धा त्वङ्गिरसः पत्नी चतस्रो सूतकन्यकाः सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा तत्पुत्रावपरा वास्ताम् ख्यातौ स्वारोचिषेऽन्तरे उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश्च बृहस्पतिः। पुलस्त्यो जनयत्पत्न्यामगस्त्यम् च हविर्भुवि सोऽन्यजन्मनि दर्राग्निर्विश्रवाश्च महातपाः तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः रावणः कुम्भकर्णश्च तथान्यस्याम् विभीषणः। पुलहस्य गतिर्भार्या त्रीनसूतसती सुतान् कर्मश्रेष्ठम् वर्यान्सम् सहिष्णुम् च महामते क्रतोरपि क्रिया भार्या वालखिल्यान्नसूयत। ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्म तेजसा ऊर्जायाम् जग्गिरे पुत्रा वसिष्ठस्य परन्तप चित्रकेतु प्रधानास्ते सप्त ब्रह्मर्षयो मलाः चित्रकेतुः सुरोचिश्च विरजा मित्र एव च उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयो परे चित्तिस्त्वतर्वणः पत्नी लेभे पुत्रम् धृतव्रतम् दध्यञ्चमश्वशिरसम् भृगोर्वंशम् निबोध मे भृगुख्यात्याम् महाभागः पत्न्याम् पुत्रा नजीजनत् धातारम् च विधातारम् श्रियम् च भगवत्पराम् आयतिम् नियतिम् चैव सुते मेरुस्तयोरदात् ताभ्याम् तयोरभवताम् मृकण्डः प्राण एव च मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः कविश्च भार्गवो यस्य भगवानुशनासुतः। त एते मुनय क्षत्तर्लोकान् सर्गैरभावयन् एष कर्दम दौहित्र सन्तानः कथितस्तव शृण्वत श्रद्धधानस्य सद्यः पापहरः परः प्रसूतिम् मानवीम् दक्ष उपयेमे यजात्मजः तस्याम् ससर्ज दुहित्री षोडशामलोचनाः त्रयोदशादाद्धर्माय तथैकामग्नये विभुः पितृभ्य एकाम् युक्तेभ्यो भवायैकाम् भवच्छिदे श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः बुद्धिर्मेधा तितिक्षारीर्मूर्तिर्धर्मस्य पत्नयः श्रद्धा सूतशुभम् मैत्री प्रसादमभयम् दया शान्तिः सुखम् मुदम् तुष्टिः स्मयम् पुष्टिरसूयत योगम् क्रियोन्नतिर्दर्पमर्थम् बुद्धिरसूयत मेधास्मृतिम् तितिक्षा तु क्षेमम् रिः प्रश्रयम् सुतम् मूर्ति सर्वगुणोत्पत्तिर्नरनारायणावृषि ययोर्जन्मन्यतो विश्वमभ्यनन्दत् सुनिर्वृतम् मनांसि ककुभो वाता प्रसेदुः सरितोद्रयः दिव्यवाद्यन्ततूर्याणि पेतुः कुसुमवृष्टयः मुनयस्तुष्टुवस्तुष्टा जगुर्गन्धर्वकिन्नराः नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् देवा ब्रह्मादयः सर्वे उपतस्तुरभिष्टवैः देवा ऊचुः यो मायया विरचितम् निजयात्मनीदम् खेरूपभेदमिव तत्प्रतिचक्षणाय एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै सोऽयम् स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणाननुमेयतत्त्वः दृश्यादभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलम् क्षिपतारविन्दम् एवम् सुरगणैस्तात भगवन्तावभिष्टुतौ लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ताविमौ वै भगवतो हरेरंशा विहागतौ भारव्ययाय च भुवः कृष्णौ यदुकुरुद्वहौ स्वाहाभिमानिनश्चाग्नेरात्मजान् स्त्रीनजीजनत् पावकम् पवमानम् च शुचिम् च हुतभोजनम् तेभ्योऽग्नय समभवन् चत्वारिंशच्च पञ्च च त एवैकोनपञ्चाशत् साकम् पितृपितामहैः वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः आग्नेय इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तुते अग्निष्वात्ता परिषदः सौम्याः पितराज्यपाः साग्नयो नग्नयस्तेषाम् पत्नी दाक्षायणी स्वधा तेभ्यो दधारकन्ये द्वे वयुनाम् धारिणीम् स्वधा उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे भवस्य पत्नी तु सती भवम् देवमनुव्रता आत्मन सदृशम् पुत्रम् न लेभे गुणशीलतः पितर्य प्रतिरूपे स्वे भवाया नागसेरुषा अप्रौढेवात्मनात्मानमजहाद्योगसंयुता ओम स्वस्ति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुर मैत्रेय संवादे प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्न मनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।